वेदपाठाः ऋग्वेदसंहितापाठः
ॐ वेदशिवशिवो वेदो वेदाध्यायी सदाशिवः तस्मात् सर्वप्रयत्नेन वेदमेव सदा पठेत् श्रीगुरुभ्यो नमः ॐ अग्निमीळे पुरोहितं यज्ञस्य देवं ऋत्विजं होतारं रत्नधातमं अग्निः पूर्वेभिरऋषिभिरीड्यो नूतनैरुता स देवां एह वक्षति अग्निना रयिमश्नवत्पोषमेव दिवे दिवे यशसं वीरवत्तमं अग्नेयं यज्ञमध्वरं विश्वतः परिभूरसि स इद्देवेषु गच्छति अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः देवो देवेभिरागमत् यदङ्गदाशुषे त्वमग्ने भद्रं करिष्यसि तवेत्तत्सत्यमङ्गिरः उपत्वाग्ने दिवे दिवे दोषावस्तरधिया वयम् नमो भरन्त एमसि राजन्तमध्वराणां गोपामृतस्य दीदिविम् वरधमानौ स्वेदमे स नः पितेव सूनवेग्ने सूपायनो भव स च स्वानस्वस्तये ॐ वायवाया हि दर्शते मे सोमा अरङ्कृताः तेषाम् पाहि श्रुधि हवम् वाय उक्थेभिर्जरन्ते त्वामच्छाजरिताराः सुतसोमा अहर्विदाः वायो तव प्रपृञ्चति धेनाजिगाति दाशुषे उरूची सोमपीतये इन्द्रवायु इमे सुता उपप्रयोभिरागतम् इन्दवो वा मुशन्तिः वायविन्द्रश्च चेतथः सुतानाम् वाजिनी वसू तावायातमुपद्रवत् वायविन्द्रश्च सुन्वत आयातमुपनिष्कृतम् मक्ष्वी इत्था धिया नरा मित्रम् हुवे पूत दक्षम् वरुणम् च रिषादसम् धियं घृताचीं साधन्ता ऋतेन मित्रा वरुणावृता वृधा वृतस्पृशा क्रतुम् बृहन्तमाशाथे कवीनो मित्रा वरुणा तु विजाता उरुक्षया दक्षं दधाते अपसम् ॐ ॐ अश्विनाय ज्वरीरिषो द्रवत्पाणी शुभस्पति पुरुभुजा च नश्यतम् अश्विना पुरुदंससा नराशवीरया धिया धिष्ण्यावनतङ्गिराः दस्रा युवाकवस्सुता ना सत्या वृक्तबर्हिषः आयातौ रुद्रवर्तनी इन्द्राया हि चित्रभानो सुता इमे त्वायवाः अण्वीभिस्तना पूतासाः इन्द्राया हि धियेषितो विप्रजूतः सुतावतः उपब्रह्माणि वाघताः इन्द्राया हि तूतुजान उपब्रह्माणि हरिवः सुते दधिष्वनश्च नाः ओमासश्चर्षणी धृतो विश्वे देवास आगता दाश्वांसो दाशुषः सुतम् विश्वे देवासो अप्तुरस्सुतमागन्ततूर्णयः उस्रा इव स्वसराणि विश्वे देवासो असृध एहि मायासो अद्रुहाः मेधञ्जुषन्तवह्नयः पावका नः सरस्वती वाजेभिर्वाजिनीवती यज्ञम् वष्टुधिया वसुः चोदयित्री सूनृतानाञ्चेतन्ती सुमतीनाम् यज्ञम् दधे सरस्वती महो अर्णः सरस्वती प्रचेतयति केतुना धियो विश्वाविराजति ओम्। सुरूपकृत्नुमूतये सुदुघामिव गोदुहे जुहूमसिद्य विद्यवी उपनस्सवनागहि सोमस्य सोमपाः पिबा गोदा इद्रेव तोमदाः अथा ते अन्तमानाम् विद्याम सुमतीनाम् मानो अतिख्य आगहि परे हि विग्रमस्त्रितमिन्द्रम् पृच्छा विपश्चितम् यस्ते सखिभ्य आवरम् उत ब्रुवन्तु नो निदो निरन्यतश्चिदारत दधाना इन्द्र इद्दुवाः उत नः सुभगाम् अरिर्वोचेयुरदस्म कृष्टयाः स्यामेदिन्द्रस्य शर्मणि एमाशुमाशवे भरयज्ञश्रियन् रमादनम् पतयन्मन्दयत्सखम् अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः प्रावो वाजेषु वाजिनम् तन्त्वा वाजेषु वाजिनम् वाजयामशतक्रतो धनानामिन्द्रसातये यो रायो वनिर्महान् सुपारस्सुन्वतः सखा तस्मा इन्द्राय गायत ॐ आत्वेता निषीदतेन्द्रमभिप्रगायत सखायस्तोमवाहसः पुरूतमम् पुरूणामीशानम् वार्याणाम् इन्द्रौ सोमे स चासुते सघानो योग आभुवत्सराये स पुरन्ध्याम् गमद्वाजेभिरासनाः यस्य संस्थेन वृण्वते हरी समत्सु शत्रवः तस्मा इन्द्राय गायत सुतपावने सुता इमेषु च योयन्ति वीतये सोमासो दध्याशिरः त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः इन्द्रज्यैष्ठ्याय सुक्रतो आत्वा विशन्त्वा शवः सोमास इन्द्रगिर्वणः शन्ते सन्तु प्रचेतसे त्वां स्तोमा अविवृधन्त्वा मुखा शतक्रतो त्वां वरधन्तु नो गिराः अक्षितोतिस्सने दिमं वाजमिन्द्रः सहस्रिणम् यस्मिन् विश्वानिपंस्या मानो मर्ता अभिद्रुहन्तनूनामिन्द्रगिर्वणः ईशानोयवया वधम् ॐ युञ्जन्ति ब्रध्नमरुषञ्चरन्तम् परितस्थुषाः रोचन्ते रोचना दिवि युञ्जन्त्यस्य काम्या हरी विपक्षसारथे शोणा धृष्णो नृवाहसा केतुम् कृण्वन्न केतवे पेशो मर्या अपेशसे समुषद्भिरजायथाः आदहस्वधामनु पुनर्गर्भत्वमेरिरे दधानाम यज्ञियम् वीळुचिदारुजत्नुभिर्गुहाचिदिन्द्रवह्निभिः अविन्द उश्रिया अनु देवयन्तो यथा मतिमच्छा विदद्वसुङ्गिराः महामनूषतश्रुतम् इन्द्रेण संहिदृक्षसे सञ्जग्मानो अभिभ्युषा मन्दूसमानवरचसा अनवद्यैरभिद्युभिर्मखः सहस्वदर्शति गणैरिन्द्रस्य काम्यैः अतः परिज्मन्नागहि दिवो वा रोचनादधि समस्मिन्नृञ्जते गिराः इतो वा सातिमीमहे दिवो वा पार्थिवादधि इन्द्रम् महो वारजसः ॐ इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणाः इन्द्रम् वाणीरनूषत इन्द्र इद्धर्योः स च सम्मिश्ल आवचो युजा इन्द्रो वज्रीहिरण्ययाः इन्द्रो दीर्घाय चक्षस आसूर्यं रोहयद्दिवि विगोभिरद्रिमैरयत् इन्द्रवा जेषु नोव सहस्रप्रधनेषु च उग्र उग्राभिरूतिभिः इन्द्रम् वयम् महाधन इन्द्रमर्भे हवामहे युजम् वृत्रेषु वज्रिणम् स नो वृषन्नमुञ्चरुंसत्रादावन्नपावृधि अस्मभ्यमप्रतिष्कुतः तुञ्जे तुञ्जेय उत्तरे स्तोमा इन्द्रस्य वज्रिणाः न विन्धे अस्य सुष्टुतिम् वृषायूथे ववंसकः कृषीर्यर्त्योजसा ईशानो अप्रतिष्कुतः य एकश्चर्षणीनाम् वसूनामि रज्यति इन्द्रः पञ्चक्षितीनाम् इन्द्रम् वो विश्वतस्परिहवामहे जनेभ्यः अस्माकमस्तु केवलः ओम्।